गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र मनसः लक्षणं तस्मिन् विषये वयं करपत्रमपि पठितवन्तः तत्र करपत्रे अनेके अंशाः आसन् किञ्चित् तेषां पुनस्मरणं कृत्वा इदानीं तत्र विद्याधर्यां मनसः निरूपणम् इति पाठः यः अस्ति तं पाठं पठामः तर्हि तत्र करपत्रे तत्र गतवर्गे अस्माभिः पठितं करपत्रं तत्र अनेके अंशाः आसन् तत्र कः वदति तत्र मनसः विषये तत्र किं किम् अस्ति इति तत्र चिन्तयामः तत्र अस्तु शोभा भगिनी तत्र मनसः परिमाणविषये तत्र मनसः परिमाणं किम् अस्ति
मनसः परिमाणं परमाणुरूपम् अस्ति
परमाणुरूपम् अस्ति हा समीचीनम् अपि तत्र मनसः एकत्वं वा अनेकत्वं वा
मनसः अनेकत्वं भवति यतोहि तत्र हा शरीर किम् उक्तवन्तः तत्र भेदात् हा
शरीरे
जीवः तु प्रतिशरीरं भिन्नो विभुः नित्यः च इति ज्ञातवन्तः तेन मनसः भिन्नत्वं भवति
हा तत्र आत्मापि जीवात्मापि भिन्नः अपि तत्र मनः अपि भिन्नम् अस्ति प्रत्येकशरीरे प्रत्येकस्मिन् शरीरे एकं मनः इति अस्ति समीचीनं हा समीचीनं भगिनी धन्यवादः उषा भगिनी तत्र ज्ञानसमये तत्र मनः कुत्र वर्तते नाम यदि वयं किमपि पश्यामः तत्र शरीरे कुत्र भवति मनः इति विषये किम् उक्तं
मनः यत् इन्द्रियं पश्यति तत् अकृते भवति तत्कृते सम्भवति
नाम यदि किमपि पश्यामः तत्र मनः कस्य समीपे भवति
तत् इन्द्रियस्य कृते यतोहि ज्ञानं मनसि भवति
हा समीचीनं भगिनि चक्षुन्द्रियेण तत्र चक्षुरिन्द्रियस्य समीपे मनः भवति यदि पश्यामः तत्र चक्षुषा यदा ज्ञानं भवति यदि किमपि शृण्मः तदा तत्र मनः कुत्र वर्तते तर्हि
श्रोत्रेन्द्रियकृते वर्तते
हा श्रोत्रेन्द्रियस्य समीपे मनः वर्तते इति अस्ति समीचीनं हा अस्तु अतः तत्र वयं तत्र मनः मनसः परिमाणम् अपि तत्र मनः शरीरे कुत्र वर्तते इति दृष्टवन्तः अपि तत्र वयं तत्र ज्ञानं कदा उत्पद्यते नाम तत्र मनः अपि तत्र आत्मा जीवात्मा तयोः मध्ये संयोगसम्बन्धेन तत्र अस्माकं ज्ञानं भवति तत्र नाम तत्र संयोगः अपेक्षितः यथा तत्र संयोगः अपेक्षितः चक्षुर् यदि किमपि पश्यामः तत्र अपि किमपि स्पृशामः तत्र संयोगः अपेक्षितः अस्ति तथैव तत्र मनः अपि आत्मा तयोः मध्ये तत्र संयोगसम्बन्धः यदा ज्ञानसमये संयोगसम्बन्धः वर्तते तेन संयोगेन एव तत्र ज्ञानम् उत्पद्यते नाम ज्ञानस्य प्रत्यक्षं भवति प्रत्यक्षं नाम तत्र यत्किमपि अस्ति तस्य प्रत्यक्षज्ञानं तथा एव भवति तत्र मनसा प्राप्तं ज्ञानं तत्र इदानीं तत्र विमला भगिनी तत्र मनसा प्राप्तं ज्ञानं तत्र प्रत्यक्षं ज्ञानं वा अथवा अन्यविधं ज्ञानं वा
ज्ञानं तु प्रत्यक्षमस्ति महोदय आभ्यन्तर इदो यद्यपि मनः आभ्यन्तर इन्द्रियमस्ति तेन गृह्यते तद् प्रत्यक्षमेव इति उच्यते
हा समीचीनं नाम तत्र प्रत्यक्षज्ञानम् इत्युक्ते केनापि इन्द्रियेण
ग्रहीतं तदेव प्रत्यक्षे उच्यते
हा इति अस्ति समीचीनं भगिनि हा अतः तत्र केवलं बहिरिन्द्रियम् इति किमपि नास्ति आभ्यन्तर इन्द्रियेण अपि यदि प्राप्तं ज्ञानं तद् प्रत्यक्षम् इति एव भवति अस्तु समीचीनं धन्यवादः भगिनी. अतः तत्र वयं तत्र करपत्रे अनेकान् विषयान् पठितवन्तः. इदानीं तत्र विद्याधरीं पुनः गच्छामः, तत्र पठामः तत्र किमस्ति इति. तत्र अन्तिमभागे तत्र करपत्रे तत्र लक्षणवाक्यम् उक्तमासीत्, अतः तत्र लक्षणवाक्यम् इदानीं पठित्वा तत्र अग्रे सरामः. अस्तु, अस्ति तत्र एतत् केवलं तत्र विद्याधरीपुस्तकमेव, अतः तत्र मनोनिरूपणमिति अस्ति. अत्र किञ्चित् पठित्वा तत्र इदानीं तत्र आनन्देन एतत् पठितुं शक्नुमः, यतोहि करपत्रेण वयं बहु किमपि अधीतवन्तः, अतः तत्र एतत् सुलभं भवति. किन्तु अत्रापि केचन विषयाः तत्र तेषां तत्र अवगमनं सम्यक् रीत्या भवतु इति कृत्वा अत्रापि किञ्चित् स्थगयित्वा एव अग्रे सरामः. किन्तु पश्यामः तर्हि अतः तत्र हा योगेन्द्रमहोदय आरम्भे तत्र मनोनिरूपणमिति आरम्भतः पठति वा महोदय.
आं पठामि. इत्थम् आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयति. सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रति आत्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च इति.
हा, इत्युक्ते किञ्चित् वदतु महोदय, तत्र किं किम् अवगम्यते?
सुखादि उपलब्धिसाधनम् इन्द्रियम्, अतः सुखं दुःखम् आदि आत्मनः ये विशिष्टः गुणाः सन्ति, सुखदुःख तेषां साधनं ग्राह्य इन्द्रियं मनः अस्ति. तेषां ज्ञानं मनः अस्ति,
मनसा प्राप्तं.
तत् च प्रति आत्मा नियतत्वात् अनन्तम्. मनः प्रति आत्मा इत्युक्ते प्रति शरीरे भिन्न अस्ति.
हा, नियमेन भिन्नः अस्ति एकस्मिन् शरीरे अथवा एकस्मिन्
प्रति आत्मा प्रति मनः अस्ति.
एकं मनः अस्ति, अतः अनन्तम्
अनन्तः, अतः अनन्त अस्ति. अपि च तस्य परिमाणं परमाणुरूपम् अस्ति. मनः नित्यम् अपि अस्ति.
हा, नित्यमपि अस्ति, नाम तत्र मरणानन्तरमपि तत्र यथा आत्मा तिष्ठति तथैव शरीरस्य मरणं भवति, किन्तु तत्र आत्मनः मरणं नास्ति. आत्मा नित्यपरपदार्थः, तथैव मनः अपि नित्यपदार्थः अस्ति. समीचीनं महोदय. हा, समीचीनं, धन्यवादः. हा, अस्तु, नूतनतया के आगतवन्तः तत्र. हा, शुभदा भगिनी, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः भगिनी. अस्तु, अन्य कोऽपि? अस्तु, तर्हि अग्रे तत्र हा, मृणालिनी भगिनी अग्रे पठति वा?
उपलब्धि प्रत्यक्षम्. सुखादीनां यत् प्रत्यक्षं भवति, अहं सुखी, अहं दुःखी इत्येवम् आकारकं तस्य साधनं करणं यदिन्द्रियं तत् मनः. चक्षुः चक्षुः श्रोत्रादि इन्द्रियाणि यथा रूपशब्दादिगुणग्राहकाणि तथा सुखदुःखादिगुणग्राहकं यत् इन्द्रियं तत् मनः इत्युच्यते.
तावत्पर्यन्तम्.
उपलब्धि प्रत्यक्षम् अर्थात् ज्ञानम्. सुखादीनां यत् प्रत्यक्षं भवति.
उपलब्धिः प्रत्यक्षं नाम, उपलब्धिः इत्युक्ते प्रत्यक्षं नाम ज्ञानं. उपलब्धिः इत्युक्ते उपलब्धिः अपि प्रत्यक्षं समानार्थकशब्दः नाम पर्यायवाचकवाचकशब्दः अस्ति उपलब्धिः नाम प्रत्यक्षं प्रत्यक्षम् इत्युक्ते इन्द्रियेण प्राप्तं ज्ञानं
तर्हि सुखादीनां यत् प्रत्यक्षं भवति तर्हि सुखादीनां मध्ये सर्वे नवगुणाः वा
न न अत्र केवलं तत्र सुखं दुःखम् इति अपि तत्र
प्रयत्न
इति एव तत्र अन्येषां तत्र ज्ञानं न भवति खलु नाम तत्र धर्मः अधर्मः तेषां तत्र अनुमानेन एव खलु
आमां भावनाख्या अपि अनुमानेन
अतः तत्र इदानीं सुखम् इति उदाहरणं स्वीकृत्य वदतु
अस्तु तर्हि अहं सुखी अहं दुःखी इत्येवम् आकारकं तस्य साधनं वा करणं यदिन्द्रियं तत् मनः तर्हि मनसा एव अहं सुखी अहं दुःखी इत्येवम् आकारकं यत् ज्ञानं भवति
हा समीचीनम् इत्याकारकं ज्ञानं यदस्ति तस्य तस्य ज्ञानस्य साधनम् अथवा इन्द्रियं करणम् इन्द्रियं तदस्ति
मनः
समीचीनं हा अग्रे
चक्षुः श्रोत्रादि इन्द्रियाणि यथा रूपशब्दादिगुणाग्राहकाणि गुणग्राहकाणि चक्षुरिन्द्रियेण यथा रूपग्रह्यते रूपं गृह्यते श्रोत्रेन्द्रियेण शब्दः गृह्यते आदिमध्ये अतः इदानीं चक्षु
पञ्चेन्द्रियाणि सन्ति खलु अतः तत्र चक्षुश्रोत्रादि इन्द्रियाणि यथा रूपशब्दस्पर्श एतादृशादि ये सन्ति तेषां गुणाः ये सन्ति तेषां ग्राहकाणि सन्ति खलु पञ्चेन्द्रियाणि तत्र रूपशब्द इति गुणः खलु रूपम् इत्युक्ते गुणः शब्दः इति गुणः खलु
तथा सुखादिगुणग्राहकं यत् इन्द्रियं सुखदुःखादिगुणग्राहकं यत् इन्द्रियं तत् मनः इति उच्यते
तत्र मनः किं गृह्णाति
मनः प्रत्यक्षम् अहं सुखी अहं दुःखी इति
नाम चक्षुः चक्षुषा रूपस्य प्रत्यक्षं भवति खलु
आम् आम्
रूपस्य प्रत्यक्षज्ञानं भवति अथवा चक्षुः रूपं गृह्णाति खलु नाम रूपं चक्षुषा गृह्यते इति यथा भवती उक्तवती खलु चक्षुरेन्द्रियेण रूपं गृह्यते खलु नाम चक्षुः रूपं गृह्णाति तथैव मनः किं गृह्णाति
मनः तत् उत्पन्नं यत् ज्ञानम् अस्ति तत् आत्मनि
समीचीनं किन्तु यत् वाक्यं यत् वाक्यं भवत्या पठितं तत्र किम् उक्तं तत्र तथा इति आरभ्य
तथा सुखदुःखादिगुणग्राहकं यत् इन्द्रियं तत् मनः
तर्हि तत्र वाक्यमस्ति यथा चक्षु श्रोत्रादि इन्द्रियाणि तथा मनः इति उक्तं खलु तर्हि तत्र यथा चक्षुः अस्ति तथा मनः अस्ति खलु तर्हि श्रोत्र चक्षुः यदि रूपं गृह्णाति तर्हि तत्र मनः किं गृह्णाति
मनःसुखादि आभ्यन्तरेन्द्रियेण यत् सुखं दुःखं
न आभ्यन्तरेन्द्रियेण इत्युक्ते मनः खलु मनः किं गृह्णाति मनः नाम सुखदुःखादिगुणग्राहकम् इत्युक्ते किम्
गुणग्राहकं
न सुखदुःखादिगुण इति तावत्पर्यन्तं किमस्ति सुखदुःखादिगुण इत्युक्ते किमस्ति सुखम् इत्युक्ते सुखं कीदृशपदार्थः
गुणः अस्ति आत्मनः गुणः अस्ति
आत्मनः समीचीनम् आत्मनः गुणः अस्ति समीचीनम् इदानीं तस्य एषः गुणः केनापि इन्द्रियेण गृह्यते वा
न मनसा एव गृह्यते
मनसा किन्तु मनः इन्द्रियमस्ति वा
आम् मनः इन्द्रियमस्ति
तर्हि केन इन्द्रियेण गृह्यते सुखं मनसा
मनसा
अतः मनः एतस्य गुण एतस्य गुणस्य ग्राहकमस्ति खलु मनः
मनः गुणग्राहकमस्ति
अत एव यथा तत्र चक्षुः रूपग्राहकं रूपगुणग्राहकम् अस्ति खलु तथैव मनः सुख दुःख इत्यादि गुणग्राहकम् अस्ति खलु
गुणग्राहकम् अस्ति
समीचीनं वा अवगतं खलु इदानीम्
अवगतम् अवगतम्
पुनः स्वशब्दैः एकवारं वदतु तर्हि
यथा चक्षुः वा श्रोत्रेन्द्रियं रूपं शब्दादि गुणग्राहकं ग्राहकाणि भवन्ति तथैव सुखदुःखादि गुणग्राहकम् इन्द्रियं मनः अस्ति
नाम मनः सुखं गृह्णाति दुःखं गृह्णाति सुखं दुःखम् इत्यादि आत्मनः गुणाः सन्ति अतः मनः एतेषां गुण एतेषां गुणानां ग्राहकम् अस्ति खलु अस्तु समीचीनम् अस्तु अग्रे सरामः तर्हि इदानीं तत्र अग्रे तत्र जयलक्ष्मी भगिनी अग्रे
आं महोदय पठामि महोदय अत्र साधनम् इति पदस्य करणम् इति अत्र दत्तं खलु अस्माकं करपत्रे पूर्वम् आत्मनः करपत्रे तु कारणम् इति उक्तं खलु
समीचीनं तथा तत्र तत्र करणम् इति अपि कारणमस्ति नाम तत्र अग्रे गत्वा तस्य विवरणं भवति अत्र साधनम् इति यदस्ति न्यायशास्त्रे साधनम् इत्युक्ते कारणम् एव अत्र अपि करणम् इत्युक्ते तत्र विशिष्टकारणम् इति कारणेषु एकः अस्ति करणं किन्तु करणमपि कारणमेव अपि साधनम् इति यदस्ति तद् लौकिक अर्थः नास्ति साधनं न्यायशास्त्रे पारिभाषिकशब्दः अस्ति तत्र यथा तत्र लोकयानेन यदि वयं तत्र अन्यं ग्रामं गच्छामः तत्र किमर्थं तत्र अथवा तत्र विद्यालयं गच्छामः इति चिन्तयतु तत्र विद्यालयं गच्छामः लोकयानेन तत्र कारणं तत्र विद्यालयस्य गमनस्य कारणं किम् इत्युक्ते वयं किमपि वदामः पाठः इति किमपि भवति किन्तु तत्र माध्यमम् इत्युक्ते वयं वदामः तत्र माध्यमं तु लोकयानम् इति खलु लोके नाम गमनक्रिया लोकयानेन कृतम् अस्ति गमनक्रिया अभवत् लोकयानेन कृता अस्ति किन्तु न्यायशास्त्रे तत्र गमनं तत्र पाठशालायाः तत्र पाठशालां गच्छामः तर्हि तत्र तस्य कारणं किम् इत्युक्ते तत्र वयं वदामः लोकयानमपि कारणं यतोहि तत्र लोकयानं नासीत् चेत् तत्र पाठशालां न तत्र तस्य गमनं न भवति न जायते इति अतः तत्र यत् लोके वयं माध्यमम् इति वदामः अथवा साधनम् इति वदामः अत्र तु तद् कारणम् इति रूपे एव तस्य व्यवहारः भवति
अत्र कारणमिति करणमिति कारणं जातम् इत्यनेन कारणमिति
करणम् अपि करणम् इति विशिष्टकारणम् अग्रे तस्य विवरणं भवति
अस्तु अस्तु महोदय पठामि इदानीम् अनेन इन्द्रियेण न केवलं सुखादीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि यद्यपि आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजननेन एव रूपापेक्षा मनः तु आभ्यन्तरम् आत्मानं तद् गुणाञ्च गृह्णाति अनेन इन्द्रियेण इत्युक्ते मनसा न केवलं सुखादि सुखादीनां प्रत्यक्षं जायते किन्तु तद् आश्रयस्य आत्मनः अपि इत्युक्ते अत्र आत्मा मनस् शरीरे अस्ति इति अस्माभिः पठितम् अत्र मनः मनसा एव सुखादीनां प्रत्यक्षज्ञानं भवति मनसा इति वदनेन न केवलं सुखादीनां प्रत्यक्षम् इन्द्रियं किन्तु तद् आश्रयस्य आत्मनः अपि ज्ञानं भवति इति अत्र उक्तमस्ति इत्युक्ते
आत्मज्ञानमपि प्रत्यक्षज्ञानमपि भवति मनसा
मनसा एव आत्मनः ज्ञानमपि जायते
जायते हा तत्र सुखस्य सुख इति यः गुणः अस्ति आत्मनि तस्य तदपि तस्य प्रत्यक्षमपि मनसः भवति अपि गुणस्य आश्रयः आत्मा जीवात्मा यः अस्ति तस्य अपि प्रत्यक्षं ज्ञानं मनसा एव
गृह्यते इति
भवति हा इति अस्ति हा अग्रे
यद्यपि आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजननेन एव रूपापेक्षा मनसः क्षम्यताम् आत्मनः आत्मनि रूपं नास्ति इति उक्तं तथापि यथा बाह्येन्द्रियेण प्रत्यक्षज्ञानं जायते तथा एव आत्मनः रूपमपि रूपापेक्षा अपि तथा एव करणीयः इति उक्तं वा
न न तत्र भगिनि तत्र किमस्ति तत्र दर्शितरीत्या नाम पूर्वं वयं पठितवन्तः तत्र यत् किं तत्र वयं किमपि पश्यामः नाम तत्र घटः पटः वा तत्र रूप नाम तत्र सम्यक्तया दृश्यते तत्र प्रत्यक्षज्ञाने तत्र रूपस्य अपेक्षा अस्ति खलु तत्र वयं दृष्टवन्तः तत्र यदि बहु लघु भवति अथवा बृहत् भवति तत्र वयं न तस्य प्रत्यक्षज्ञानं न भवति तत्र साक्षात् किम् उक्तं तत्र इत्युक्ते
तत्र उद्भूतरूपम् इति वा
हा उद्भूतरूपम् इति आसीत् खलु भगिनि हा अतः तत्र उद्भूतरूपं यदस्ति तद् केवलं तत्र उद्भूतरूपम् आत्मनि नास्ति खलु रूपमेव आत्मनि नास्ति रूपमिति गुणः तत्र केवलं तत्र पृथिव्यां तत्र इति इत्यादिषु भवति किन्तु आत्मनि तु रूपं नास्ति अतः तत्र उद्भूतरूपं तु आत्मनि नास्ति खलु तर्हि
आत्मनि नास्ति
नास्ति अतः तत्र प्रश्नः उदेति कथं वदामः तत्र तस्य प्रत्यक्षज्ञानं भवति इति तर्हि उत्तरमस्ति तत्र उद्भूतरूपं केवलम् उद्भूतरूपस्य अपेक्षा कुत्र वर्तते बहिरिन्द्रियेण
बहिरिन्द्रियेण एव प्रत्यक्षजनने रूपापेक्षा आवश्यकी
एव तत्र एव अस्ति यदि प्रत्यक्षज्ञानं बहिरिन्द्रियेण भवति तत्र एव
उद्भूतरूपस्य
अपेक्षा अस्ति किन्तु आत्मनि तत्र रूपं नास्ति तथापि तस्य प्रत्यक्षज्ञानं भवति इति यतोहि तत्र
आभ्यन्तरेन्द्रियेण आभ्यन्तरेन्द्रियमस्ति आभ्यन्तरेन्द्रियेण यत् प्रत्यक्षज्ञानं जनयति तत्र उद्भूतरूपस्य अपेक्षा नास्ति इति वा
इति केवलं बहिरिन्द्रियेण प्रत्यक्षज्ञाने एव तत्र रूपस्य उद्भूतरूपस्य अपेक्षा आभ्यन्तरेन्द्रियस्य मनसः तत्र तस्मिन् सन्दर्भे तत्र तादृशी अपेक्षा नास्ति
अस्तु मनः तु आभ्यन्तरम् आत्मानं तद्गुणान् च गृह्णाति आभ्यन्तरेन्द्रियमस्ति मनः इति आत्मानं तद्गुणान् च गृह्णाति ये गुणाः मनसा गृह्यते तत्
नाम गृह्णाति नाम तेषां प्रत्यक्षज्ञानं जनयति खलु नाम यथा पूर्वं गुणग्राहकम् इत्युक्ते चक्षुः रूपगुणग्राहकं नाम किमस्ति
रूपादिगुणाः
चक्षुः रूपग्राहकमस्ति इत्युक्ते किं
चक्षुषा रूपं गृह्यते इति अर्थः
गृह्यते नाम रूपस्य प्रत्यक्षज्ञानं
ज्ञानं जनयति
हा ज्ञानं जनयति तथैव अत्र मनः गुणान् गृह्णाति इत्युक्ते
मनसा सुखादि दुःखादि गुणाः गृह्यन्ते इति
गृह्यन्ते नाम तेषां प्रत्यक्षज्ञानं
जनयति प्रत्यक्षज्ञानं
जनयति जनयति इति अतः आत्मनः प्रत्यक्षज्ञानं मनसा भवति आत्मनि तद्गुण नाम आत्मनः गुणान् अपि आत्मनि ये गुणाः सन्ति तेषामपि तानपि गृह्णाति मनः अतः तेषामपि प्रत्यक्षं प्रत्यक्षज्ञानं जनयति मनः
अत्र आत्मानम् इति किमर्थम् उक्तम् आत्मानं तद्गुणान् च गृह्णाति
इत्युक्ते आत्मानं गृह्णाति इत्युक्ते आत्मानमिति विभक्ति का तत्र
द्वितीया विभक्ति खलु
द्वितीया हा नाम गृह्णाति नाम आत्मनः प्रत्यक्षज्ञानमपि जनयति खलु
हा सत्यं
हा अतः आत्मनः प्रत्यक्षज्ञानं जनयति इत्युक्ते आत्मानं गृह्णाति यथा तत्र रूपं चक्षुः रूपं गृह्णाति इत्युक्ते चक्षुः रूपस्य प्रत्यक्षज्ञानं जनयति खलु
आम्
चक्षुः रूपस्य प्रत्यक्षज्ञानं जनयति इत्युक्ते चक्षुः रूपं गृह्णाति
रूपं गृह्णाति
इदानीं मनः सुखं गृह्णाति इत्युक्ते किम्
मनसा सुखम् इति गुणः गृह्यते इति
अथवा सुखस्य ज्ञानं
प्रत्यक्षज्ञानं जनयति
इदानीं मनः आत्मानं गृह्णाति इत्युक्ते
आत्मानं च गृह्णाति इति आत्मनः विषयः अपि मनसा एव गृह्यते
इत्युक्ते
आत्मनः ज्ञानमपि प्रत्यक्षज्ञानं भवति तदपि मनसा एव गृह्यते आभ्यन्तरेन्द्रियेण गृह्यते
गृह्यते इति खलु यद्यपि आत्मनि रूपं नास्ति तथापि तस्य प्रत्यक्षज्ञानं मनसा भवति अतः आहत्य
मनसा सुखदुःखादि गुणादि अपि गृह्यन्ते तथा आत्मनः ज्ञानमपि मनसा एव आभ्यन्तरेन्द्रियेण एव गृह्यते इति
इति अस्ति अतः समीचीनम् अतः इदानीं तत्र लक्षणवाक्यं पश्यामः इदानीम् एतावत् किम् उक्तं मनसा तत्र सुखस्य वा दुःखस्य वा तेषां प्रत्यक्षज्ञानं मनसा भवति नाम मनः सुखादि गुणानां तत्र कृते तेषां प्रत्यक्षज्ञानं प्रति कारणमस्ति यतोहि मनसा एव तत्र ग्रहणं भवति ते गृह्यन्ते इति कृत्वा तत्र मनः सुखादि उपलब्धि नाम प्रत्यक्षसाधनं नाम कारणं सुखस्य प्रत्यक्षकारणं मनः इति अस्ति अपि इन्द्रियमपि अस्ति मनः
आचार्य अत्र करणमस्ति खलु मनः करणम् अस्ति लिखितं खलु
करणम् इति विशिष्टकारणम् इति करणमपि कारणमस्ति किन्तु तत्र सर्वाणि कारणानि करणम् इति न उच्यन्ते करणम् इति विशिष्टकारणम् अस्ति तस्य विवरणम् अग्रे भवति भगिनि किन्तु इदानीं करणम् इत्युक्ते विशिष्टकारणम् इति चिन्तयतु अस्तु मृणालिनी भगिनि
आमाम् अस्तु अस्तु
हा करणम् इत्युक्ते कारणं किन्तु विशिष्टकारणम् अतः इदानीं किम् अस्ति अस्माकं एतत् वाक्ये तत्र मनसः निरूपणे इदानीं वाक्यं यदस्ति अत्र सुखादि उपलब्धिसाधनम् इति एकः भागः तदनन्तरम् इन्द्रियम् इति अन्यः भागः तर्हि तत्र सुखादि उपलब्धिसाधनम् अपि इन्द्रियं मनः एतत् तत्र गन्धवती पृथिवी इव दृश्यते किन्तु वयम् उक्तवन्तः तत्र लक्षणवाक्यं कीदृशं भवेत् तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति तदा एव तत्र लक्षणं लक्ष्ये अस्ति इति वयं सम्यक् रीत्या अवगन्तुं शक्नुमः. तादृशं यदि वदामः तत्र किं भवति, तत्र इन्द्रियत्वम् अपि सुखादि उपलब्धिसाधनत्वं मनसः लक्षणं. तत्र मनः इन्द्रियमस्ति. तत्र इदानीं तत्र अन्य कोऽपि इदानीं तत्र किञ्चित् अत्र चर्चा भवेत् इदानीम्. अतः तत्र नरसिंहमहोदय, तत्र इन्द्रियत्वं कुत्र कुत्र वर्तते महोदय?
इन्द्रियत्वं यानि यानि इन्द्रियाणि सन्ति तत्र तत्र वर्तते. चक्षुरिन्द्रिये
चक्षुरिन्द्रिये वर्तते, श्रोत्रेन्द्रिये वर्तते, मनसि वर्तते वा?
मनः अतीन्द्रिय अस्ति अतः न वर्तते.
मनः अपि किन्तु
वर्तते वर्तते तत्रापि वर्तते.
हा मनः अपि नाम तत्र अतः तत्र मनः अपि इन्द्रियम् इति कृत्वा मनसि अपि इन्द्रियवर्तकम् इन्द्रियत्वम् अस्ति. इदानीं तत्र अत्र लक्षणवाक्ये तत्र इन्द्रियत्वम् इति एकं दलमस्ति, अपि साधनत्वम् इति एकं दलमस्ति. केवलम् इन्द्रियत्वम् इति आसीत् चेत् तत्र दोषः भवति वा नरसिंहमहोदय? इन्द्रियत्वं मनसः लक्षणम् इति आसीत् चेत्
इन्द्रियत्वम् इत्युक्ते दोषः भवति. किमर्थम् इत्युक्ते अन्य इन्द्रियाः अपि सन्ति, तत्र अतिव्याप्तिः भवति. ग्राणेन्द्रिये चक्षुरिन्द्रिये
हा अतः तत्र केवलम् इन्द्रियत्वं मनसः लक्षणम् इत्युक्ते दोषः अतिव्याप्ति दोषः भवति. समीचीनं. हा इदानीं अतः तत्र एकेन तत्र द्वितीयदलम् इति एव आसीत् चेत् तत्र अतिव्याप्ति दोषः भवति. इदानीं तत्र प्रथमदलम् अस्ति सुखादि उपलब्धिसाधनत्वम् अथवा साधनं मनः अथवा साधनत्वं मनसः लक्षणम् इति. तत्र का स्थितिः इति तस्मिन् विषये किञ्चित् चर्चा भवतु. अतः इदानीं तत्र साधनं नाम वयम् उक्तवान् करणम् अथवा कारणं. तर्हि सुखादि उपलब्धिकारणं मनः अथवा कारणत्वं मनसि अस्ति. कारणत्वं मनसः लक्षणम् इति एकं दलम् अस्ति. तर्हि तत्र कारणत्वम् इति एव वदामः. साधनत्वम् इति अपि इन्द्रियं यदि न वदामः तत्र किं तत्रापि अतिव्याप्तिदोषः भवति वा? नाम यदि इन्द्रियम् इति भागः नासीत् चेत्, सुखादि उपलब्धिसाधनं मनः इति वाक्यम् आसीत् चेत् तत्र दोषः भवति. वदतु महोदय.
तत्र ग्रहणं भवति परन्तु आत्मा इन्द्रियं नास्ति तत्र.
हा इति समीचीनं महोदय. हा हा अतः तत्रापि दोषः भवति इति स्थितिः अस्ति. तस्मिन् विषये किञ्चित् तत्र भूमिका भवेत्. अतः तत्र यत् किमपि कार्यम् अस्ति, कार्यं किमपि अस्ति, तत् कार्यं प्रति साधारणतया केवलम् एकमेव कारणमिति न भवति, अनेकानि कारणानि भवन्ति साधारणतया. अतः तेषां तत्र प्रकारत्रयम् अस्ति कारणानाम्. अतः तत्र तेषां विषये किञ्चित् चर्चयामः. तदनन्तरम् अत्रापि कारणत्वं तत्र केवलं मनसि एव अस्ति इति नास्ति, अन्येषु पदार्थेषु अपि कारणत्वम् अस्ति इति सम्यक् रीत्या अवगन्तुं शक्नुमः. अतः तत्र किमपि कार्यमस्ति नाम तत्र घटः इति चिन्तयामः. घटः इति कार्यम् इति चिन्तयामः. तत्र घटं प्रति किं किम् अस्ति कारणं? तत्र चन्द्रमती भगिनी नमस्कारः.
नमस्ते.
नमस्कारः भगिनी. तत्र घटस्य विषये, घटः इति कार्यमस्ति चेत् तत्र कारणं किं किं भवति घटस्य निर्माणे किं किम् अपेक्षितमस्ति?
कुलालः
कुलालः अपेक्षितः, पृथ्वी अपेक्षितः, जलम् अपेक्षितं खलु?
जलम् अपेक्षितं.
हा अपि कपालः इति अपेक्षितः दण्डः खलु दण्डः चक्रं
चक्रं
खलु अतः तत्र अनेकानि कारणानि सन्ति इदानीं तत्र अस्माकं पूर्वं वयं पठितवन्तः तत्र कारणं यत्किमपि कारणमिति वक्तुम् इच्छामः तत्र तत्र कुलालः कारणमिति वक्तुम् इच्छामः अथवा तत्र जलं घटं प्रति कारणमिति वक्तुम् इच्छामः तत्र निकषत्रयम् आसीत् पूर्वं कः अथवा का स्मरति तत्र निकषत्रयं कारणस्य विषये
तत्र कार्याधिकरणे भवेत् कार्याधिकरण सर्वदा भवेत् कार्योत्पत्तेः पूर्वक्षणमपि भवेत्
भवेत् इति अस्ति तर्हि कार्याधिकरणे भवेत् कार्याधिकरणे सर्वदा भवेत् अपि कार्यस्य उत्पत्तेः पूर्वक्षणं कार्याधिकरणे भवेत् इति निकषत्रयम् अस्ति तर्हि निकषत्रयम् अस्ति चेदेव तत्र कारणम् इति वयं स्वीकर्तुं शक्नुमः इति अस्ति अस्तु इदानीं तत्र कारणेषु वयं तत्र कारणेषु तत्र वयं तत्र समवायिकारणम् अपि असमवायिकारणम् अपि निमित्तकारणम् इति तत्र त्रैविध्यं वर्तते कारणम् इति अतः तत्र घटः अस्ति घटः तत्र किमपि यः कोऽपि कार्यमस्ति तत्र कार्यमस्ति चेत् किमपि कार्यमस्ति यस्मिन् अधिकरणे तत्र तत्र अधिकरणं किमपि अधिकरणं तत्र समवायसम्बन्धेन एतदपि कारणं भवेत् अपि कार्यं समवायसम्बन्धेन कारणे अस्ति चेत् तदा वयं वदामः एतद् अधिकरणं भवति समवायिकारणम् समवायिकारणम् तर्हि तत्र घटः कस्मिन् पदार्थे समवायसम्बन्धेन भवति तत्र
कपाले
कपाले कपाले तत्र सम्बन्धः अस्ति समवायसम्बन्धः इदानीं कपालः तत्र किं कारणमस्ति वा तत्र घटं प्रति खलु तर्हि यदि तत्र कपालः नासीत् चेत् तत्र घटस्य उत्पत्तिः न भवति अपि तत्र अग्रे गत्वा वयं पश्यामः तत्र कपालः तत्र वयं पूर्वमपि दृष्टवन्तः खलु तत्र कपालः तत्र घटस्य अधिकरणम् अस्ति कपालः कपालः कारणम् इति वक्तुं वयं किं कृतवन्तः तत्र कपालः तादात्म्यसम्बन्धेन तादात्म्यसम्बन्धेन कपा तस्मिन् वर्तते अतः तत्र समानाधिकरणम् अस्ति घटः कार्यं कपालः कारणं तत्र घटः समवायसम्बन्धेन कपाले अस्ति कपालः कारणम् अस्ति अतः कपालः समवायिकारणमस्ति घटस्य घटस्य समवायिकारणमस्ति कपालः तर्हि कार तत्र कार्यं किमपि कार्यम् अस्ति पदार्थः अस्ति यदि सः पदार्थः तत्र यहि यदि तत् कार्यं केनापि अधिकरणे समवायसम्बन्धेन तिष्ठति चेत् अपि अधिकरणम् अपि कारणम् अस्ति चेत् तर्हि तत्र तदधिकरणं भवति समवायिकारणं तत्र घटं घटस्य समवायिकारणमस्ति कपालः अपि पटः अस्ति चेत् पटस्य पटः समवायसम्बन्धेन कुत्र तिष्ठति
तन्तुः
हा तन्तुः तिष्ठति अतः तन्तवः तन्तवः समवायिकारणं सन्ति पटस्य पटस्य समवायिकारणम् अस्ति तन्तवः इति अस्ति तर्हि प्रथमविधकारणमस्ति समवायिकारणम् अग्रे गत्वा एतस्मिन् विषये बहु किमपि पठामः किन्तु इदानीं तत्र मनः मनसः लक्षणे तत्र साधनं कारणम् इति प्रविष्टमस्ति इति कृत्वा तस्मिन् विषये किञ्चित् वक्तव्यमस्ति तर्हि तत्र प्रथमविधकारणमस्ति समवायिकारणम् तर्हि घटस्य तर्हि समवायिकारणं किमस्ति प्रथमविधकारणम् अस्ति समवायिकारणं तत्र कार्यं कारणे अपि तत्र समवायसम्बन्धः यदि अस्ति चेत् तत्र एतद् भवति समवायिकारणम् तर्हि उदाहरणार्थं तत्र वयम् एतद् उक्तवन्तः घटः कपाले कपालः घटस्य समवायिकारणं पटः तत्र तन्तवः पटस्य समवायिकारणम् इदानीं तत्र चिन्तयामः तत्र नीलः घटः इति अस्ति इति चिन्तयामः नीलः घटः तर्हि नीलरूपम् इति अथवा नीलरूपम् इति पुस्तके इति चिन्तयामः तत्र पुस्तकं नीलरूपवत् अस्ति तत्र नीलपुस्तकम् इति चिन्तयामः नीलरूपम् इति गुणः अस्ति पुस्तकमिति द्रव्यमस्ति तस्य आश्रयः अस्ति तत्र नीलरूपं केन सम्बन्धेन पुस्तके भवति
समवायसम्बन्धेन
तर्हि तत्र समवायसम्बन्धः अत्र सम्बन्धः अस्ति समवायसम्बन्धः अपि तत्र पुस्तकं नीलरूपं प्रति कारणमस्ति वा तत्र यदि पुस्तकं नास्ति चेत् तत्र नीलरूपं भवति वा न भवति अतः तत्र तादृशं चिन्तनेन अपि वयं ज्ञातुं शक्नुमः तत्र कारणं पुस्तकं कारणम् अस्ति इति कृत्वा तत्र नीलरूपं प्रति पुस्तकमपि कारणम् इति कृत्वा नील पुस्तकं भवति नीलरूपं प्रति समवायि कारणं तर्हि तत्र उदाहरणत्रयम् अत्र अस्ति इदानीं तत्र द्वितीयविध कारणम् अस्ति असमवायिकारणम् प्रथमविधमस्ति समवायिकारणं द्वितीयविधमस्ति असमवायिकारणं तर्हि असमवायिकारणं कीदृशं तत्र कार्यमस्ति कार्यं समवायिकारणे अस्ति समवायसम्बन्धेन अस्ति अस्मिन् समवायिकारणे तत्र यदि कोऽपि गुणः वा साधारणतया गुणः वा कापि क्रिया वा यदि भवति अपि एषः गुणः कारणमस्ति कार्यं प्रति अथवा क्रिया कारणमस्ति कार्यं प्रति यदि तादृशी स्थितिः अस्ति चेत् तदा वयं वदामः एषः गुणः अथवा एषा क्रिया अस्ति कार्यस्य असमवायिकारणम् तर्हि तत्र गुणः अथवा क्रिया तत्र समवायिकारणे यदि अस्ति अपि एषः गुणः कारणमस्ति कार्यं प्रति तदा गुणः असमवायी कारणम् इति वदामः सन्दर्भ अनुगुणं तत्र गुणः सन्दर्भेषु तत्र गुणः असमवायिकारणं भवति कदाचित् क्रिया असमवायिकारणं भवति किन्तु असमवायिकारणं गुणः वा क्रिया वा एव भवति अपि एषः गुणः अथवा एषा क्रिया कुत्र वर्तते समवायिकारणे वर्तते तर्हि अत्र असमवायिकारणस्थले अत्र निकषद्वयम् अस्ति निकषद्वयं किम् अस्ति इति एकवारं लिखामः तत्र असमवायिकारणस्य निकषद्वयं तत्र तत्र गुणः अथवा क्रिया अस्ति अपि इति गुण अथवा क्रिया कारणमस्ति प्रथमतया कारणमस्ति कार्यं प्रति अपि द्वितीयम् अस्ति समवायिकारणे वर्तते तर्हि असमवायिकारणं किम् अस्ति असमवायिकारणं गुणः अथवा क्रिया भवति कुत्र अस्ति एतद् समवायिकारणे अस्ति अपि प्रथमतया गुणः कारणं भवेत् अथवा क्रिया कारणं भवेत् अपि एषः गुणः अथवा क्रिया समवायिकारणे भवेत् इति अस्ति तर्हि तत्र उदाहरणार्थं तत्र किमस्ति असमवायिकारणस्य उदाहरणम् एतदस्ति तत्र यदि तत्र घटः कपालः स्वीकुर्मः अथवा पटः तन्तवः स्वीकुर्मः तत्र पटः तन्तवः स्वीकुर्मः तन्तवः समवायिकारणमस्ति पटं पटस्य तर्हि तत्र पटस्य असमवायिकारणं किं भवति किमपि गुणः अथवा किमपि गुणः अथवा क्रिया तन्तुषु भवति अपि कारणमस्ति पटं प्रति तदा वयं तत्र असमवायिकारणम् इति वदामः तत्र पटः कदा भवति यदि वयं तन्तून् स्वीकृत्य तत्र तेषां तत्र संयोगं कुर्मः तत्र मेलनं कुर्मः तदा एव पटस्य निर्माणं पटः उत्पद्यते तर्हि तत्र किं भवति तत्र तन्तुषु संयोगसम्बन्धः भवति तर्हि तत्र संयोगसम्बन्धः तत्र संयोगसम्बन्धः तत्र तन्तूनां संयोगः तत्र संयोगः तन्तूनां संयोगः तत्र का वदति तत्र अथवा यः कोऽपि वदेत् तत्र संयोगः इति कीदृशः पदार्थः संयोगः
संयोगः इति तन्तूनां गुणः अस्ति यदा ते मिलित्वा
गुणः अस्ति समीचीनं हा तत्र चतुर्विंशतिगुणेषु एकः अन्यतमः अस्ति संयोगः समीचीनं हा तर्हि संयोगः इति गुणः अस्ति तन्तूनां गुणः अस्ति अपि यदि संयोगः नास्ति चेत् तन्तूनां संयोगः नास्ति चेत् पटस्य उत्पत्तिः भवति वा
पटः एव न भवति
पटः एव न भवति अतः तत्र संयोगः अपि तन्तूनां संयोगः अपि कारणमस्ति पटं प्रति अतः तन्तूनां संयोगः एषः गुणः तन्तुषु वर्तते एषः संयोगः असमवायिकारणं भवति अतः तत्र एषः एव तत्र असमवायिकारणमस्ति तर्हि तत्र एतदेव असमवायिकारणमस्ति पटं प्रति तर्हि पटस्य समवायिकारणमस्ति तन्तुः अथवा तन्तवः अपि पटस्य असमवायिकारणमस्ति संयोगः अपि यत् कारणमस्ति तृतीयविधकारणं बहु सुलभमस्ति यत् कारणं समवायिकारणं नास्ति असमवायिकारणं नास्ति तत्सर्वं निमित्तकारणं तर्हि यानि कारणानि समवायिकारणं नास्ति असमवायिकारणं न सन्ति ते सर्वाणि तत्र निमित्तकारणानि अतः तत्र समवायिकारणम् असमवायिकारणम् एतद्वयं विहाय यानि कारणानि सन्ति तानि सर्वाणि निमित्तकारणानि तर्हि तत्र अतः तत्र इदानीं तत्र घटः इति स्वीकुर्मः इदानीं तर्हि घटः इति स्वीकुर्मः तत्र अन्यः पुटः भवेत् तर्हि तत्र अस्तु इदानीं तत्र घटः इति स्वीकुर्मः उदाहरणं घटः तर्हि तत्र हा विमला भगिनी तत्र घटस्य समवायिकारणं किमस्ति
घटः कपाले अस्ति इति कपालः समवायिकारणं भवति किं
हा घटः तत्र कपालः घटः कपाले अस्ति अपि तत्र समवायिकारणम् इति कदा वदामः यदि तत्र घटः केन सम्बन्धेन अस्ति कपाले
समवायसम्बन्धेन
समवायसम्बन्धेन अस्ति हा तत्र अवयव अवयविनोः समवायसम्बन्धः इति नियमः समीचीनं हा तत्र समवायसम्बन्धः अतः एव तत्र कपालः अस्ति समवायिकारणं समीचीनं हा अस्तु इदानीं
महोदय
प्रश्नः
पटपि तन्तु एतेषां यदा उक्तं तन्तूनां संयोगसम्बन्धेन एव पट भवति
खलु
परन्तु तत्रापि अवयव अवयविनोः समवायसम्बन्ध इति अपि अस्ति खलु तत्र समवायसम्बन्धः भवति वा असमवायसम्बन्धः भवति वा इति
एकनिमिष तत्र अस्तु पटः तन्तुषु समवायसम्बन्धेन अस्ति खलु यतोहि अवयव अवयवनोः समवायसम्बन्धः अतः तत्र तन्तवः किं भवन्ति समवायि अधिकरणमपि समवायिकारणं खलु पटस्य समवायिकारणमस्ति अपि तत्र समवायिकारणे संयोगः इति गुणः अस्ति खलु खलु नाम तन्तूनां तत्र संयोगः
संयोगेन पठ उद्भवति
अतः तत्र संयोगः इति गुणः इति कृत्वा सः गुणः तन्तुषु वर्तते खलु अतः अपि संयोगः इति कारणमस्ति पटं प्रति यतोहि तत्र संयोगं विना पटस्य निर्माणं न भवति अतः संयोगः इति किं भवति
असमवायिकारणं भवति
असमवायिकारणम् अस्ति कारणम् अस्ति नाम संयोगः प्रथमनिकषः अस्ति कारणम् अस्ति अपि असमवायिकारणे गुणः अथवा क्रिया वा भवेत् तर्हि गुणः अस्ति क्षम्यतां समवायिकारणे भवेत् तर्हि गुणः अस्ति अपि एषः संयोगः समवायिकारणे अस्ति कारणमपि अस्ति अतः असमवायिकारणम् अस्ति पटस्य समीचीनं वा
किञ्चित् पठनीयं महोदय
किन्तु वदतु भगिनि तत्र प्रश्नः अस्ति चेत्
प्रश्नः इत्युक्ते यदा वयं घटः भूतले अस्ति सम्बन्धः कीदृशसम्बन्धः इत्युक्ते संयोगसम्बन्धः अस्ति परन्तु घटकपाले समवायसम्बन्धेन अस्ति इति एषः संयोगः अपि च समवायः पृथक् किं समवायसम्बन्धः अपि च असमवायसम्बन्धः एतेषाम् अपि च तेषाम्
असमवायसम्बन्धः इति नास्ति तत्र असमवायिकारणे सम्बन्धस्य तत्र विषयः नास्ति केवलं तत्र असमवायिकारणं समवायिकारणे भवेत् इति अस्ति तत्र नियमः
अस्तु महोदय
अतः तत्र समवायिकारणम् इति यदि वदामः तत्र सम्बन्धस्य महत्त्वम् अस्ति तदनन्तरं किं भवति तत्र असमवायिकारणं तत्र गुणः अथवा क्रिया भवति तत्र गुणिनोः मध्ये कः सम्बन्धः
समवायसम्बन्धः
क्रिया क्रियवतोः मध्ये
तदपि समवायसम्बन्धः
अतः अत्रापि समवायसम्बन्धः एव भवति किन्तु तत्र अत्र सम्बन्धः अस्ति, नाम तत्र पटः अपि तन्तु तन्तवः तयोः मध्ये समवायसम्बन्धः, अत्रापि समवायसम्बन्धः अस्ति, किन्तु अत्र सम्बन्धः नास्ति खलु? संयोगः अपि पटः तयोः मध्ये कोऽपि सम्बन्धः नास्ति खलु? नाम साक्षात् सम्बन्धः, अग्रे गत्वा तत्र परम्परारीत्या तत्र सम्बन्धः अस्ति इति कल्पयितुं शक्नुमः, किन्तु साक्षात् सम्बन्धः यथा तत्र समवायः वा संयो तत्र तादृशसम्बन्धः अत्र नास्ति खलु? पटः अपि संयोगः, तन्तूनां संयोगः तयोः मध्ये कोऽपि साक्षात् डिरेक्ट् सम्बन्धः नास्ति खलु? हा, समीचीनं भगिनि,
धन्यवादः महोदय.
हा अस्तु, इदानीं तर्हि अन्य कोऽपि इदानीं तत्र उषा भगिनी, तर्हि तत्र इदानीं तत्र कपालः इति समवायिकारणं, तर्हि तत्र असमवायिकारणं किम् अस्ति अत्र?
असमवायिकारणम् इति यदि गुणा क्रिया वर्तते असमवायिकारणम् इति उच्यते.
किन्तु कारणमपि भवेत्, कारणमपि भवेत् अपि गुणक्रिया भवेत् अपि, एषः गुणः कुत्र भवेत्?
गुणक्रिया अस्मिन् उदाहरणे गुण अथवा
कारणम् असमवायिकारणं कुत्र भवति? असमवायिकारणम् असमवायिकारणं कुत्र भवति? असमवायिकारणं समवायिकारणे भवति.
समवायिकारणे भवति, आं महोदय.
कार्यमस्ति, कार्यं कुत्र भवति? समवायिकारणे अस्ति. असमवायिकारणं किं कुत्र अस्ति? असमवायिकारणं गुणः क्रियः वा भवति, कारणमस्ति अपि, एतत् कारणं कुत्र अस्ति? समवायिकारणे
कारणम्.
अत्र तत्र तन्तूनां संयोगः एव असमवायिकारणम् आसीत् पटं प्रति. इदानीं तत्र घटस्य उत्पत्तिः कथं भवति? कपालं द्वयं स्वीकृत्य किं कुर्मः? कपालद्वयस्य संयोगेन एव तत्र घटस्य उत्पत्तिः
भवति.
तर्हि तत्र कपालस्य संयोगः नाम तत्र संयोगः इति गुणः अस्ति खलु? तर्हि अपि कपालसंयोगः, तत्र कपालसंयोगः कुत्र अस्ति? गुणः इति कृत्वा एषः गुणः कपाले अस्ति खलु?
अस्ति महोदय.
अपि संयोगं विना घटस्य उत्पादनं न भवति,
न भवति.
अतः संयोगः अपि कारणमस्ति, कपालसंयोगः घटस्य कारणमस्ति, घटं प्रति कारणमस्ति, अपि एतत् कारणं समवायिकारणे अस्ति, अपि एतत् कारणं गुणः अस्ति. अतः निकषद्वयं तत्र समीचीनरीत्या तत्र तत् सङ्गच्छति. अतः तत्र कारणमस्ति, घटं प्रति कारणमस्ति, अपि गुणः अस्ति, अपि समवायिकारणे अस्ति. अतः तत्र घटस्य इदानीं तत्र चन्द्रमती भगिनी, घटस्य समवायिकारणं किमस्ति?
कपालः.
कपालः. असमवायिकारणं किमस्ति?
कपालसंयोगः.
कपालसंयोगः. कुलालः किं भवति? कुलालः कारणं खलु?
कारणं.
हा, किन्तु कुलालः समवायिकारणं वा?
न, समवायिकारणम्.
असमवायिकारणं वा कुलालः?
कुलालः
निमित्तकारणं. हा, समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति, निमित्तकारणम् अस्ति. जलं जलमपि निमित्तकारणं. चक्रं दण्डः निमित्तकारणम्. अतः तत्र केवलं तत्र घटं प्रति तत्र कपालः कपालसंयोगः इति तत्र समवायिकारणम् असमवायिकारणम् अन्यत् सर्वं तत्र निमित्तकारणम् इति स्वीकुर्मः तत्र अस्तु समीचीनं हा तर्हि तत्र इदानीं तत्र अग्रे गत्वा तत्र एतस्मिन् विषये बहु किमपि पठामः इदानीं केवलम् उदाहरणार्थम् एतत् उक्तवन्तः
इदमेव एकवारं पुनः वक्तुं शक्यते किं घटकपाल अपि च निमित्तकारणमिति
अस्तु अस्तु वदामि भगिनि तर्हि तत्र घटः इति कार्यं घटः इति कार्यं तत्र कपालः इति कारणमस्ति घटं प्रति कपालः इति कारणम् अस्ति यतोहि तत्र वयं जानीमः तत्र कारणमित्युक्ते तत्र वयं तत्र निकषत्रयमस्ति नाम कार्याधिकरणे भवेत् सर्वदा भवेत् अपि पूर्वस्मिन् क्षणे अपि भवेत् अतः वयम् अतः एव तत्र वयं पूर्वम् एतत् चित्रं कृतवन्तः खलु नाम तत्र तत्र चित्र अत्रैव स्थापयामः तत्र घटः कपालः तत्र घटः क्षमितम् अत्र घटः कपालः अपि कपाले कपालः तादात्म्यसम्बन्धेन अस्ति सम्बन्धेन अस्ति अतः कपालः कार्याधिकरणे अस्ति कार्याधिकरणम् अस्ति कार्यमस्ति घटः कार्याधिकरणम् अस्ति कपालः कपालः कार्याधिकरणे अस्ति तादात्म्यसम्बन्धेन पूर्वस्मिन् क्षणे अस्ति सर्वदा अस्ति पूर्वस्मिन् क्षणे अपि अस्ति अतः कपालः कारणमस्ति घटं प्रति खलु हा इदानीं घटः अस्मिन् कारणे केन सम्बन्धेन वर्तते समवायसम्बन्धेन वर्तते तर्हि अतः कपालः समवायी कारणम् अस्ति घटं प्रति अथवा घटस्य समीचीनम् एतावत् अस्तु अतः समवायिकारणम् इत्युक्ते यस्मिन् अधिकरणे कार्यं समवायसम्बन्धेन तिष्ठति तद् अधिकरणं भवति समवायिकारणम् तत्र गुणाः सन्ति तेषां समवायिकारणं किं भवति आश्रयः रूपस्य समवायिकारणं तत्र पृथ्वी वा जलं वा तत्र यस्मिन् पदार्थे अस्ति द्रव्ये अस्ति तद्द्रव्यमेव समवायिकारणम् तत्र परिमाणं तत्र स्पर्शः यत्किमपि गुणः भव यः कोऽपि गुणः भवतु तस्य समवायिकारणमस्ति तस्य आश्रयः द्रव्यम् इति प्रथमविधकारणम् इदानीं द्वितीयविधकारणमस्ति असमवायिकारणम् असमवायिकारणं किम् अस्ति प्रथमतया कारणम् अस्ति असमवायिकारणं कारणम् अस्ति अतः तत्र असमवायिकारणं कारणम् अस्ति अपि विशिष्टकारणमस्ति नाम गुणः अथवा क्रिया भवेत् अपि तत्र असमवायिकारणं गुणः अथवा क्रिया भवेत् अपि एषः गुणः कुत्र अस्ति एषः गुणः समवायिकारणे भवेत् अतः द्वितीयविध कारणं तदपि कारणमेव अस्ति अपि एतत् कारणं गुणः अथवा कपालः गुणः अथवा क्रिया भवेत् प्रथमतया कारणमस्ति गुणरूपकारणम् अथवा क्रियारूपकारणम् अस्ति अपि एतत् कारणं समवायिकारणे भवेत् तदा असमवायिकारणम् इति वदामः अत्र असमवायिकारणं किम् अस्ति अस्मिन् उदाहरणे घटः इति कार्यं प्रति
कपालसमवायिकारणमस्ति अपि च क्रिया रूपः यदि रूपं रूपस्य
अत्र घटः इति कार्यं घटः एव कार्यं
घटः कार्यम्
आम् अतः घटस्य कारणेषु एकः अस्ति कपालः सः कपालः अस्ति समवायिकारणं इदानीं घटस्य कारणेषु अन्यत् किमपि अस्ति कारणम् अपि एषः कारणं गुणः अथवा क्रिया भवेत् अपि कपाले भवेत् तर्हि कपाले गुणः अस्ति वा यत् तत्र घटं प्रति कारणम् अस्ति किन्तु कपालस्य गुणः अस्ति वा किमपि
कपालः द्रव्यं खलु
हा कपालः द्रव्यं हा तत्र कपालस्य कपालद्वयं स्वीकृत्य तत्र घटस्य निर्माणं कथं भवति कपालद्वयं स्वीकृत्य तयोः संयोगः संयोगसम्बन्धः सम्बन्धेनैव तत्र घटं भवति तर्हि कपालसंयोगः कारणमस्ति घटं प्रति हा इदानीं संयोगः कीदृशपदार्थः
गुणः
तर्हि कपालसंयोगः अत्र कपालसंयोगः गुणः अस्ति एषः कपालसंयोगः घटस्य कारणमस्ति अतः प्रथमतया कारणमस्ति अपि एषः संयोगः समवायिकारणे अस्ति खलु अतः एषः संयोगः कपालसंयोगः असमवायिकारणम्
अवगतम् धन्यवादः धन्यवादः
अतः तत्र समवायिकरणम् असमवायिकरणम् एतयोः ज्ञानमस्ति चेत् यत्किमपि कारणं भवेत् समवायिकरणम् असमवायिकरणम् अस्ति न वा इति द्रष्टव्यं नास्ति चेत्
निमित्तकारणं
निमित्तकारणम् अतः विशिष्टकारणद्वयमेव समवायिकरणम् असमवायिकरणम् अन्यानि सर्वाणि कारणानि
निमित्तकारणानि
महोदय
अन्य कोऽपि प्रश्नः वदतु भगिनि
कश्चन प्रश्नः इदानीं समवाय कपालः इति कारणम् इति स्वीकृत्य समवायिकारणम् इति स्वीकरोति पुनः संयोगः गुणः इति स्वीकृत्य असमवायिकारणम् इति स्वीकृतं खलु इदानीं गुणः इति संयोगः गुणः अस्ति इति स्वीकुर्मः चेत् तत्रापि गुणगुणिनोः समवाय
समीचीनं भगिनि किन्तु अत एव अहम् उक्तवान् तत्र समीचीनं तर्हि तत्र अस्तु तत्र कपालः घटस्य समवायिकारणम् अस्ति खलु किमर्थम् घटः घटः तत्र कपालः अवयवः कपालः सन्ति खलु
सत्यम्
अवयव अवयवयोः मध्ये सम्बन्धः अस्ति
समवायसम्बन्धः
अतः तत्र घटः अवयवी अस्ति अतः अवयवी अवयवे समवायसम्बन्धेन अस्ति खलु तर्हि अत्र सम्बन्धः अस्ति समवायसम्बन्धः अपि कपालः कारणमस्ति खलु घटं प्रति कारणमस्ति तर्हि कपालः कारणमस्ति घटः अस्मिन् कारणे समवायसम्बन्धेन अस्ति अतः कपालः समवायिकारणम्
अस्तु
नाम समवायिकारणम् एकमेव भवितुम् अर्हति यतोहि तत्र सम्बन्धः उक्तः अस्ति समवायसम्बन्धः एव भवेत् इति अतः एकः पदार्थः तत्र अतः तत्र घटः कपालस्य तत्र समवायिकारणम् अस्ति घटस्य समवायिकारणम् अस्ति कपालः अस्तु इदानीं द्वितीयविधकारणम् असमवायिकारणम् असमवायिकारणं किम् अस्ति प्रथमतया कारणमस्ति कार्यं प्रति कारणम् अस्ति अपि द्वितीयविधम् असमवायिकारणं कीदृशम् अस्ति
गुणसंयोगः अस्ति
अत्र कपालसंयोगः अस्ति अत्र कपालसंयोगः अस्ति समीचीनं कपालसंयोगः इति कारणम् अस्ति कपालसंयोगं विना घटस्य उत्पत्तिः न भवति खलु इदानीं कपालसंयोगः गुणः अस्ति खलु यतोहि संयोगः इति गुणः अस्ति अपि एषः गुणः कुत्र अस्ति कपाले अस्ति खलु
गुणः कपाले अस्ति
कपालसंयोगः इति गुणस्य आशयः कपालः
खलु अस्तु
अतः कपालसंयोगः घटं प्रति कारणमस्ति अपि कपालसंयोगः कपाले समवायीकारणे अस्ति कपालः समवायिकारणमस्ति खलु घटस्य
आम् आं समवायिकारणे अस्ति अतः समवायिकारणे कपोल क्षम्यता कपालसंयोगः अस्ति इति
अतः एषः संयोगः असमवायिकारणं भवति तर्हि तत्र यदि यथा भवती उक्तं तत्र कपालसंयोगः समवायसम्बन्धेन अस्ति कपाले तर्हि अत्रापि सम्बन्धः समवायः अत्रापि सम्बन्धः समवायः खलु किन्तु तयोः मध्ये एतयोः मध्ये कोऽपि सम्बन्धः नास्ति खलु साक्षात् सम्बन्धः नास्ति अतः तत्र घटः कपालसंयोगे समवायसम्बन्धेन वर्तते इति किमपि नास्ति खलु घटः कपालसंयोगे अस्ति अथवा कपालसंयोगः घटे अस्ति इति न वक्तुं शक्नुमः
किन्तु गुणगुणिनोः
गुणगुणिनोः सम्बन्धः समवायः किन्तु तत्र गुणः अस्ति संयोगः गुणि अस्ति कपालः खलु अतः तत्र नाम यः गुणः अस्ति तत्र यस्य गुणस्य गुणि अस्ति समवायिकारणं सः गुणः अस्ति असमवायिकारणम्
इदानीं कपालसंयोगः इति वदामः चेत् तत्र पदार्थद्वयं न चेत् द्रव्यद्वयं सम्भवेत् खलु
तत्र कपालः इति वदामः किन्तु तत्र कपालद्वयम् इति आश्रयः अवयवः घटस्य खलु
तयोः एव संयोगः कपालद्वयस्य एव संयोगः
सत्यं भगिनि तर्हि तत्र कपालः इति साधारणतया वदामः किन्तु तत्र कपालद्वयं
कपालद्वयं
इति भवेत् अतः तत्र कपालद्वयमपि घटस्य निर्माणे आवश्यकं भवति नाम कपालद्वयमेव तत्र अवयवौ घटः इति अवयवी कपालद्वये संयोगः वर्तते समवायसम्बन्धेन कपालद्वयं समवायिकारणमस्ति अस्मिन् कपालद्वये संयोगसम्बन्धः यः वर्तते सः संयोगसम्बन्धः अस्ति घटस्य
असमवायिकारणम् न तु घटस्य कृते अस्य सम्बन्धः कपालद्वयस्य घटस्य कृते यः सम्बन्धः अस्ति तत्तु न अत्र विवक्षितम्
सत्यं सत्यम् अतः तत्र प्रथमतया एतस्य निर्माणं नाम समवायिकारणं किम् इति द्रष्टव्यं तदनन्तरं समवायिकारणे कः गुणः अस्ति यः कारणम् अस्ति कार्यं प्रति इति द्रष्टव्यम्
अस्तु
तदा असमवायिकारणं किम् इति ज्ञातुं शक्नुमः अन्य कोऽपि प्रश्नः
महोदय तत्र तर्हि कार्यम् इति आरभामहे कार्यम् इत्यस्य कारणम् अस्ति तत्र सम्बन्धः अस्ति समवायसम्बन्धः अपि च
कार्यं यत्किमपि कार्यम् अस्ति तर्हि तत्र कार्यं प्रति अनेकानि कारणानि भवन्ति
किन्तु तत्र
वदतु भगिनि
इत्युक्ते तत्र समवाय कारणम् इत्यनेन कार्यं भवति, अतः तत्र कारणं समवायी कारणं भवति, अपि च यत् कारणे अस्ति गुणः अथवा क्रिया, किन्तु तत्र साक्षात् तेन घटस्य घटम् इति स्वीकुर्मः चेत् तत्र कार्यं प्रति तस्य डैरेक्ट् किमपि
सम्बन्धः
नास्ति, तत् असमवायि सम्बन्धः भवति.
असमवायि इति न, तत्र कार्यम् अस्ति प्रथमतया, तत्र किं कुर्मः, समवायिकारणं किम् अस्ति इति परीक्षा भवति. तर्हि तत्र समवायिकारणं कीदृशं, कथं जानीमः समवायिकारणं कीदृशं भवति, यस्मिन् तत्र प्रथमतया कारणम् अस्ति, तत् तत् नाम कारणम् अस्ति, अपि अस्मिन् कारणे कार्यं समवायसम्बन्धेन भवेत्
भवति, अस्मिन् कारणे कार्यं समवायसम्बन्धेन भवति,
तदा एव एतत् कारणं समवायिकारणं भवति.
यथा कपालः,
यथा कपालः अथवा तन्तवः,
तन्तवः.
अतः तत्र कार्यं, यदि कार्यस्य किमपि कारणम् अस्ति, अपि कार्यम् अस्मिन् कारणे समवायसम्बन्धेन अस्ति चेत् तद् भव तत् कारणं भवति समवायिकारणं.
कारणम् इदानीम् असमवायि इति, तत्र तत् कारणमस्ति समवा, तत्र कारणे गुणः अस्ति, कारणे गुणः अस्ति, गुणः अथवा क्रिया अस्ति, किन्तु तत्र असमवायि इति वदामः यतोपि यतोहि तस्य सम्बन्धः कार्यस्य कृते नास्ति,
साक्षात् सम्बन्धः नास्ति,
साक्षात् सम्बन्धः नास्ति कार्यस्य कार्यं प्रति. अपि च निमित्तम् इत्युक्ते यत्किमपि कारणं भवति किन्तु कार्ये नास्ति, तस्य उत्पत्तिः एव भवति निमित्तानां,
नाम यत् यत् कारणं समवायिकारणं नास्ति,
असमवायि नास्ति, येन उत्पत्तिः न भवति किन्तु उत्पत्तेः अथवा उत्पत्त्यां न दृश्यते
अथवा
निमित्तकारणं,
नाम कारणम् एव अस्ति किन्तु कारणद्वयं नास्ति, नाम असमवायि वा असमवायि नास्ति, नाम तत्र
नास्ति किन्तु आवश्यकम् अस्ति, किन्तु तत्र सम्बन्धः इत्युक्ते तस्य सम्बन्धं निरूपयितुं न शक्नुमः इति वा,
तत्र अनेकानि कारणानि भवन्ति साधारणतया, नाम तत्र घटस्य निर्माणे कुलालः आवश्यकः, अपि तत्र जलम् आवश्यकं, पृथ्वी आवश्यकम्, अपि तत्र वयं दृष्टवन्तः ईश्वरस्य परमात्मनः इच्छा, ज्ञानं, प्रयत्नः, एतत् सर्वं भवेत्, कालः भवेत्, दिक् भवेत्. यदि कालः नास्ति चेत् तत्र निर्माणं भवति वा न भवति,
न भवति.
अतः तत्र कालः, दिक्
तत्र बहवः सम्बन्धाः सन्ति, कालिकसम्बन्धः अस्ति,
अतः वयं तत्र अनेकानि कारणानि सन्ति, किन्तु कारणसामग्र्यां कारणद्वयं तत्र विशिष्टम् इति चिन्तनम्, एकमस्ति समवायिकारणम्, अन्यदस्ति असमवायिकारणम्.
हा इत्युक्ते एतत् किञ्चित् भिन्नकारणमस्ति महोदय, एतावता वयं कारणजन्य इति दृष्टवन्तः, किन्तु अत्र तादृशं नास्ति खलु, एतत् कारणं सम्बन्धेन किन्तु तत्र जन्यः न भवति इति.
न, न, जन्यः एव अस्ति, नाम कारणं कार्यं तयोः मध्ये जनकः जन्य सम्बन्धः एव सर्वदा, नाम तत्र कारणं विना कार्यं न उत्पद्यते, तर्हि कारणं जनकः, कार्यं जन्यः एव सर्वदा. अतः तत्र कोऽपि भेदः नास्ति, किन्तु तत्र कारणेषु नाम जनकेषु एकः विशिष्टः अस्ति अथवा एकं कारणं विशिष्टम् अस्ति यस्मिन् कार्यं समवायसम्बन्धेन तिष्ठति. तत्र सर्वदा समवायिकारणम् अस्ति इति न वक्तुं शक्नुमः. तत्र सर्वदा समवायिकारणं भवति इति न वक्तुं शक्नुमः. अतः तत्र केचन सन्दर्भेषु केषुचित् सन्दर्भेषु समवायकारणं भवति न भवति, तत्र अभावः इति चिन्तयतु, घटस्य अभावः इति चिन्तयतु, घटस्य प्राग् तत्र हृद्वंसाभावः इति चिन्तयतु, तस्य कारणं तत् कार्यमस्ति, तस्य कारणं किं, किन्तु अभावः कुत्रापि तत्र समवायसम्बन्धेन वर्तते वा
न?
हा, सर्वदा स्वरूपसम्बन्धेन,
स्वरूपसम्बन्धेन वर्तते,
अतः तत्र कुत्र कुत्रापि अभावः समवायसम्बन्धेन न वर्तते, अतः तत्र अभावस्य समवायिकारणम् एव नास्ति. अतः तत्र यत्र समवायि सम्बन्धेन तिष्ठति तत्र समवायिकारणम् इति एकम् अस्ति. यदि
तदेव हा महोदय, जन्यत्वं समवायिकारणे एव अस्ति तर्हि, न तु
असमवायिकं
नास्ति वा?
न, तादृशं नास्ति. यत्र यत्र कारणत्वम् अस्ति तत्र तत्र जनकत्वम् अस्ति.
अस्तु,
नाम तत्र यदि तत्र कपालसंयोगः नास्ति चेत् घटस्य उत्पत्तिः न भवति.
तर्हि बहुत्र अस्ति
यत्र 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 कारणम् अस्ति तत्र
तत्र सर्वत्र जन्यत्वं
जनकत्वम् अस्ति.
जनकत्वम् अस्ति,
कार्ये जन्यत्वम् अस्ति.
सत्यं, क्षम्यतां,
समीचीनं. हा, न न, अन्य कोऽपि प्रश्नः?
आचार्य, नीलरूपम् इति गुणं यदि स्वीकुर्मः तर्हि गुण नीलरूपं कपाले वर्तते, तर्हि तत्
गुणं किं किं भवति वदतु भगिनि, पुनः वदतु भगिनि.
पुनः समवायिकारणेन सम्बन्धेन कपाले वर्तते
नीलरूपम् इति, तत्र घटः नीलरूपवान् वा, तत्र नीलरूप कः अस्ति?
हा, घटः नीलरूपवान्.
अस्तु, तर्हि तत्र समवायिकारणं किम् अस्ति तत्र?
समवायिकारणं नीलरूपम् इति,
रूपम् इति गुणः अस्ति खलु?
आम्.
रूपं कस्मिन् पदार्थे, तत्र नीलरूपम् इति घटे अस्ति खलु इदानीं भवत्याः
उदाहरणम्?
अस्तु, नीलरूपम् इति घटः, नीलरूपवान् घटः इति. अस्तु, तर्हि तत्र घटः इति आश्रयः खलु नीलरूपस्य? इदानीं तत्र घटः नास्ति चेत् नीलरूपं भवति वा
न भवति?
घटः कारणमस्ति वा नीलरूपं प्रति?
आम्, कारणमस्ति. तर्हि घटः समवायिकारणं नीलरूपं
इति अस्ति. समीचीनं भगिनि, एतत् समवायिकारणम् अस्ति. घटः समवायिकारणम् अस्ति नीलरूपस्य इति अस्ति. अस्तु, इदानीं तत्र किञ्चिदेव समयः अस्ति, किन्तु तत्र विषयस्य उद्घाटनं कुर्मः. तर्हि तत्र अस्माकं तत्र किम् अस्ति, तत्र कार्यमस्ति, नाम तत्र पुस्तके मनसः लक्षणं नाम सुखादि उपलब्धिसाधनं, सुखादि उपलब्धिकारणं मनः. तर्हि तत्र सुखादि उपलब्धिकारणं, तत्र सुखस्य सुखस्य उपलब्धि नाम प्रत्यक्षकारणं, प्रत्यक्षकारणं मनः इति अस्ति तत्र. तत्र मनः इति कारणमस्ति, कार्यं किमस्ति अत्र?
सुखस्य प्रत्यक्षकारणं मनः.
कार्यं किमस्ति?
सुखं
कार्यं
ज्ञानं वा?
कारणमस्ति चेत् कार्यं भवेत् खलु, कार्यमस्ति चेत् कारणं भवेत्, कारणमस्ति चेत् कार्यं भवेत्. तत्र कार्यं किमस्ति?
सुखदुःखादि एव खलु,
सुखदुःखादि प्रत्यक्षम् इति एव कार्यं नाम सुखस्य
प्रत्यक्षज्ञानं प्रत्यक्षं ज्ञानम् इत्येव कार्यम् इति एतदेव कार्यमस्ति. इदानीं तत्र एतत् कार्यं कुत्र वर्तते? ज्ञानं कुत्र वर्तते?
आत्मनि.
आत्मनि वर्तते. तर्हि आत्मनि वर्तते. तत्र आत्मा नाम जीवात्मा. आत्मनि वर्तते. अपि ज्ञानं कीदृशः पदार्थः? गुणः. गुणः. अतः एषः गुणः अस्ति. तत्र ज्ञानं, क्षम्यतां, तत्र बहु किमपि अस्तु. तत्र ज्ञानम् इति एव, तत्र ज्ञानं गुणः अस्ति. ज्ञानं गुणः अस्ति. अपि एषः गुणः आत्मनि वर्तते केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. हा, तर्हि तत्र समवायसम्बन्धः अत्र अस्ति. आत्मा, जीवात्मा कारणमस्ति वा ज्ञानं प्रति? यदि आत्मा नास्ति चेत्, जीवात्मा नास्ति चेत् तत्र ज्ञानं भवति वा?
न भवति.
न भवति. तर्हि तत्र जीवात्मा कारणमस्ति ज्ञानं प्रति, प्रत्यक्षज्ञानं प्रति. अपि ज्ञानम् इति कार्यमस्ति. एतत् कार्यम् अस्मिन् कारणे, आत्मनि, जीवात्मनि समवायसम्बन्धेन तिष्ठति, वर्तते. तर्हि जीवात्मा किम् अभवत् ज्ञानं प्रति?
अधिकरणं भवति.
अधिकरणं भवति. किन्तु तत्र कारणमस्ति. कीदृशं कारणमस्ति?
समवायीकारणं.
समवायीकारणम् अस्ति. एकः एव निमिषः, तदनन्तरं विरमाम. जीवात्मा इति समवायिकारणमस्ति ज्ञानं प्रति, सुखं प्रति, दुःखं प्रति, सर्वं तत्र समवायिकारणमस्ति. यतोहि सुखं दुःखं वा गुणः, आत्मनः गुणाः सन्ति इति कृत्वा तेषां समवायिकारणम् अस्ति तत्र जीवात्मा. इदानीं तत्र प्रत्यक्षज्ञानं, तत्र अहं सुखी इति प्रत्यक्षज्ञानं कदा भवति? यदि आत्मा अपि मनसः, मनः तयोः संयोगः भवति खलु, तदा एव प्रत्यक्षज्ञानं भवति खलु. मनः, मनः अपि आत्मा तयोः मध्ये संयोगः, संयोगसम्बन्धेन मनसा तत्र सुखस्य प्रत्यक्षज्ञानं भवति इति उक्तवन्तः. तत्र मनसा भवति इत्युक्ते तत्र मनः अपि आत्मा यः अस्ति तयोः मध्ये संयोगसम्बन्धः यदि भवति तदा एव प्रत्यक्षज्ञानं भवति. अतः तत्र मनः अपि तत्र आत्मा संयोगः. एषः संयोगः गुणः अस्ति, आत्मनि वर्तते. अपि एषः संयोगः ज्ञानं प्रति कारणमस्ति. संयोगः मनः अपि आत्मा तयोः मध्ये संयोगः नास्ति चेत् ज्ञानं न उत्पद्यते. अतः एषः संयोगः कारणमस्ति ज्ञानं प्रति. अपि एषः संयोगः समवायसम्बन्धेन आत्मनि तिष्ठति. गुणः अस्ति, अतः मनः आत्मा तयोः संयोगः असमवायी कारणमस्ति. अतः एतत् असमवायी कारणमस्ति ज्ञानं प्रति. अपि मनः अपि कारणमस्ति, किन्तु एतद् मनः निमित्तकारणं भवति इति अस्ति वार्ता. अतः तत्र इदानीं समयः जातः, किन्तु अग्रिमे वर्गे अतः आरभ्य चर्चा भवति. तत्र समवायिकारणम्, असमवायिकारणम् एतत् सर्वं दृष्ट्वा तत्र दलसार्थक्यं कुर्मः अग्रिमे वर्गे. तदनन्तरं तत्र
लक्षणवाक्यस्य तत्र विस्ताररूपेण तत्र वर्णनं कथं भवति इति एतत् सर्वं द्रक्ष्यामः.
आचार्य, अस्मिन् उदाहरणे चक्षु इन्द्रियं निमित्तकारणं भवति वा?
हा इति भवति, समीचीनं भगिनि. हा तत्र यदि चित्रं किमपि पश्यामः तेन सुखं जायते चेत् तत्र तत्र तादृशज्ञानं सुखस्य अथवा अन्यत् चित्रस्य ज्ञानं किमपि तत्र चित्रमपि निमित्तकारणं भवति, चक्षुः अपि निमित्तं कारणं भवति, मनः अपि निमित्तकारणं भवति. केवलं तत्र आत्मा इति समवायिकारणं मन आत्मनोः तत्र संयोगः असमवायिकारणम्, अन्यत् सर्वं निमित्तकारणम् इति अस्ति. अस्तु, अन्य कोऽपि प्रश्नः? अस्तु तर्हि अत्रैव विरमामः. अग्रिमे
अग्रिमवर्गे अत्र केवलं गुणं स्वीकृत्य वयं चर्चां कृतवन्तः, क्रिया इति न स्वीकृतवन्तः.
इदानीं गुणः तत् सर्वम् अग्रे आगच्छति. इदानीं केवलम् उदाहरणार्थं नाम अस्मिन् अत्र मनसः लक्षणं तत्र किम् आवश्यकं तावदेव अत्र वदामः. अग्रे तत्र सर्वं तत्र समवायिकारणं क्रिया एतत् सर्वम् अग्रे आयाति. इदानीं यत् आवश्यकं केवलं तद् वदामः. अत्र ज्ञानगुणः अस्ति इति तस्य विवरणे तत्र संयोगः, तत्र ज्ञानं गुणः अस्ति, तस्य आश्रयः आत्मा, अपि संयोगः इति गुणः अस्ति इति स्वीकृत्य इदानीं चर्चयामः. अन्यत् सर्वम् अग्रे भवति. अस्तु तर्हि, धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः तर्हि. नमस्कारः.
धन्यवादः महोदय.
नमस्कारः.
धन्यवादः महोदय. नमस्कारः.
धन्यवादः महोदय. नमस्कारः.